ॐ येन धौता गिरपुंसा विमलैः शब्दवारिभिः तमश्चाजानजं भिन्नम् तस्मै श्रीपाणिनये नमः ॐ श्रीगुरुभ्यो नमः हरिः ॐ सर्वेभ्यः नमः महोदय
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति सन्धिः अपि सन्धेः विषये वयं तत्र स्वरूपमध्यस्य करपत्रं पठन्तः आसन् किन्तु इदानीं तत्र किञ्चित् परिवर्तनं तत्र मार्गस्य परिवर्तनं तत्र डिटूर् किञ्चित् कुर्मः इति कृत्वा तत्र तृतीयपाठः गीताप्रवेशे अपकारिणामपि उपकारः इति पाठः यः अस्ति तं पाठम् अद्य पठामः अस्तु तर्हि तत्र शोभाभगिनी आरम्भं करोति वा
का महोदय अस्तु तत्र कथा दण्डकारण्ये कश्चन इत्युक्ते कस् योगः चन कश्चन व्याधः वसति स्म सः प्रतिदिनं तस्मिन् एव इत्युक्ते तस्मिन् योगः एव अरण्ये मृगयां करोति स्म मृगाणां मांसं चर्म च विक्रीय जीवनं करोति स्म एकदा अरण्यं गतः व्याघ्रः ततः मार्गभ्रष्टः तत्र सन्धिः मार्गभ्रश् योगः तः अभवत् अत्यन्तम् अन्विष्यन् अपि तत्र सन्धिः अन्विष्यन् योगः अपि सः मार्गं न ज्ञातवान् इतस्ततः अटनेन एव सायङ्कालः जातः तदा अकस्मात् कुतश्चित् तत्र सन्धिः कुतस् योगः चित् आगतः अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान् भीतः व्याघ्रः तत्रैव समीपे विद्यमानं कञ्चित् तत्र सन्धिः कं योगः चित् कञ्चित् वृक्षम् आरूढवान् वृक्षस्य शाखायां कश्चन भल्लूकः उपविष्टः आसीत् तं दृष्ट्वा व्याधः कम्पमानः किं कर्तव्यता मूढः तत्र सन्धिः किं योगः कर्तव्यता मूढः सन् तत्रैव शाखायाम् उपविष्टवान् तदा भल्लूकः व्याधं सान्त्वयन् अशत्रुप्रत्यय तत्र भोः मित्र भीतो मा भव अहं भवतः रक्षणं करोमि इत्युक्तवान्
समीचीनं भगिनि धन्यवादः
आं महोदय व्याधः भल्लूकः यत्र उपविष्टवान् आसीत् तच्छाखायां सन्धिः अस्ति तत् योगशाखायाम् एव उपविष्टवान् तदा भल्लूकः इदानीं भवान् निश्चिन्ततया सन्धिः अस्ति निस् योगचिन्ततया निद्रां करोतु अहं रक्षणं करोमि यामे व्यतीते अहं निद्रां करोमि भवान् रक्षणं करोतु इत्युक्तवान् ततः व्याधः निद्रां कुर्वन्न वर्तत सन्धिः अस्ति कुर्वन् योग अवर्तत चन्द्रकिरणाः सर्वत्र प्रसृता आसन् वृक्षस्य अधः व्याघ्रः व्याधस्य अवतरणं सम्भावयन् आसीत् सः भल्लूकम् अवदत् भोः मित्र आवां मृगौ अयं व्याधस्तु अस्माकं वैरी भवान् इदानीं तस्य रक्षणं करोति चेदपि श्वः सः भवन्तं मारयेत् अतः तम् अधः पातयतु इति
हा समीचीनं महोदय धन्यवादः हा अस्तु अग्रे हर्षिता भगिनी
आं महोदय भल्लुकः उक्तवान् मित्र यदि शरणम् आगतं मुञ्चामि तर्हि इहलोके अपख्यातिः भवेत् परलोकेऽपि दुर्गतिः भवेत् अतः एनन् तत्र सन्धिः अस्ति एनम् अधिकं न मुञ्चामि इति कश्चन कालः अतीतः व्याधः जागरितः इदानीं भल्लुकः पर्णच्छायायाम् अत्र सन्धिः अस्ति पर्ण अधिकच्छायायां निद्राम् अकरोत् तदा व्याघ्रः व्याधम् उक्तवान् रे मूढ मत्तः भीतः भवान् भल्लुकं शरणं गतवान् किं सः भवतः शत्रुः मम निर्गमनम् एव सः प्रतीक्षते तदनन्तरम् अत्र सन्धिः अस्ति तत् अधिक अनन्तरं भवन्तं मारयति अतः जागरणात् पूर्वमेव भवान् तम् अधः पातयतु इति व्याघ्रस्य वचनं श्रुत्वा कृतघ्नः व्याधः निद्रामग्नं भल्लुकम् अधः पातितवान् भल्लुकस्तु
धन्यवादः भगिनि अधः पातितवान् समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र उषास्वामिनः भगिनि अग्रे
महोदय भल्लुकः तु पतन्योगः एव भल्लूकस्तु भल्लूकः तु पतन् एव जागरितः काचित् शाखाम् अवलम्ब्य पुनः काञ्चित् शाखाम् अवलम्ब्य पुनः वृक्षम् आरुह्य उपविष्टवान् भल्लूकं दृष्ट्वा व्याधः भयेन कम्पते स्म तदा भल्लूकः उक्तवान् व्याध भयं मास्तु यद्यपि भवान् कृतज्ञः तथापि अहं न मारयामि इति तद् दृष्ट्वा व्याघ्रः उक्तवान् भवान् तस्य रक्षणं कृतवान् चेदपि सः भवन्तमेव मारयितुम् उद्युक्तः तं कृतघ्नम् अधः पातयतु इति तदा भल्लूकः उक्तवान् सखे अपकारिभ्यः विवेकिनः न कुप्येयुः न वा प्रतिविधानम् आचरेयुः अपकारिणामपि उपकारः एव कर्तव्यः इति नीतिः तस्मात् अहं न मुञ्चामि इति ततः व्याघ्रेण बहुधा प्रार्थितः अपि सः तद्वचनम् अवधीर्य आप्रभातं व्याधं रक्षितवान्
हा समीचीनं भगिनी धन्यवादः अस्तु उत्तमा कथा अस्ति इति मन्ये हा सुजाता भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी तत्र वयं गीताप्रवेशपुस्तके तत्र तृतीयपाठः अपकारिणामपि उपकारः इति पाठं
धन्यवादः
अस्तु भगिनि हा अस्तु तर्हि इदानीं तत्र उषा दिवते भगिनी तत्र आरम्भतः किञ्चित् विवृणोति वा
दण्डकारण्ये कश्चन व्याधः वसति स्म दण्डकारण्ये इति अरण्यम् अस्ति तत्र व्याधः एकः व्याधः वसति सः प्रतिदिनं तस्मिन्नेव तस्मिन् योगः एव तस्मिन् अरण्ये इत्युक्ते दण्डकारण्ये अरण्ये मृगयां करोति स्म मृगयाम् इत्युक्ते हण्टिङ्ग् इति अस्ति वा महोदय करोति स्म मृगाणां मांसं चर्म च विक्रीय जीवनं करोति स्म विक्रीय वि धातुः अस्ति न महोदय विक्रीय
विक्रीय विक्रीणीते विक्रीणीते उपसर्ग अस्ति
वि उपसर्ग अस्ति तत्र कृ धातुः अस्ति न महोदय तत्र
क्रीणाति
क्रीणाति मृगाणां मांसम् इत्युक्ते अन्यमृगस्य मांसम् अपि च चर्म च विक्रीय जीवनं करोति स्म
विक्रीय लेबन्तम् उपसर्ग अस्ति इति कृत्वा लेबन्तं खलु
प्रत्यय तस्य जीवनं करोति तत्र दण्डकारण्ये अरण्ये व्याधः मृगाणां मांसं चर्म विक्रीय जीवनं करोति तत्र
अरण्ये अस्ति किं अपि तत्र मृगयां कृत्वा मृगयाम् इत्युक्ते तत्र
सप्तमी
न न न सप्तमी नास्ति
अरण्ये सप्तमी
अरण्ये सप्तमी मृगयाम् इति सप्तमी नास्ति अतः एव पृष्टवान् तत्र करोति करोति हा करोति इति कीदृश क्रियापदं सकर्मकः अकर्मकः
सकर्मकः
हा तर्हि कर्मपदं भवेत् खलु
कर्मपदम्
अत्र कर्मपदं किमस्ति
मृगयां
हा तर्हि मृगयाम् इति पदस्य विभक्ति का
मृग मृगः मृगौ मृगाः
न न न भवती यत् मृगयाम् इति भवती उक्तवती कर्मपदं
कर्मविभक्ति
का इति किम् इति वदतु तावदेव
द्वितीयविभक्ति महोदय
द्वितीयविभक्ति हा मृगयाम् इति द्वितीयविभक्ति चेत् प्रथमविभक्तिरूपं किं भवेत् सम्यक् न श्रुतवान्
मृगः
भगिनी तत्र मृगयाम् इति रूपमस्ति चेत् विभक्ति द्वितीयविभक्त्यां कथं मृगः भवति
मृगयां नद्यां नदी मृगा अस्ति वा महोदय
मृगया लैक् लता
लतां
लतयां
लत लतया न तत् सप्तमी अस्ति भगिनी तत्र लता अस्ति चेत्
लता लते लताः हेलति हेलति लताः लतां लते
लतां खलु द्वितीयविभक्ति किम् अस्ति लतापदस्य द्वितीयविभक्ति किम् अस्ति एकवचने लतां तर्हि लता अपि लतां तयोः मध्ये कः भेदः किं कृत्वा प्रथमाविभक्तिरूपं किमस्ति
मृगया
न न प्रथम मृगया खलु यदि द्वितीयविभक्ति मृगयाम् अस्ति चेत् प्रथमविभक्ति मृगया भवेत् खलु मृगया समीचीनम् अस्तु तर्हि मृगया मृगया इति एव तत्र क्रिया अस्ति मृगया इति क्रिया अस्ति कर्मपदम् अस्ति मृगया इति स्त्रीलिङ्ग आकारान्तस्त्रीलिङ्गपदम् मृगयां करोति स्म
करोति स्म
मृगाणां मांसं मृगाणां मांसं चर्मं च विक्रीय चर्म च विक्रीय चर्म इति कीदृशपदं
चर्मन् अस्ति वा महोदय
समीचीनं कर्म इव चर्म चर्मणि चर्माणि चर्मन चर्म च विक्रीय जीवनं करोति स्म जीवति स्म अथवा जीवनं करोति स्म पुनः तत्र जीवनम् इति तत्र कर्मपदं
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 करोति
रीत्या अपि तत्र वक्तुं शक्नुमः तत्र जीवनम् इति तत्र तत्र करोति इति अस्ति चेत् तत्र जीवति इति धातुः खलु जीव इति धातुः जीवति इति अस्ति तत्र
मांसं च चर्म च
तत्र करोति अस्ति चेत् एकमस्ति तत्र कर्मपदमस्ति खलु
आं महोदय
मृगयाम् इति कर्मपदं नाम अहं कार्यं करोमि इति किन्तु अन्यरीत्या अपि वयं तत्र करोति इति प्रयोगः कुर्मः नाम अहं नाम रमेशः पठति अथवा रमेशः पठनं करोति तथैव सः जीवति स्म सः जीवनं करोति स्म पठति स्म पठति पठनं करोति जीवति जीवनं करोति ल्युडन्त् रूपं
जीवनं
जीवनं ल्युडन्त् रूपम् अस्ति खलु तत्र अस्तु समीचीनम् अग्रे
एकदा अरण्यं गतः व्याधः तत्र मार्गभ्रष्टः अभवत् एकदा अरण्यं गतः तप्रत्यय अरण्यं गतः व्याधः मार्गभ्रष्टः इत्युक्ते मार्गं अन्यमार्गे
समीचीनं नाम समीचीनमार्गे सः न आसीत् अन्यं मार्गम् अनुसृत्य गतवान् अतः इदानीं न जानाति कुत्र अस्ति इति सः
न जानाति
मार्गं मार्गस्य ज्ञानं तस्य नास्ति
नास्ति मार्गभ्रष् योगः तः तत्र
सम्प्रत्ययः तत्र
अभवत् लङ्लकार
यथा तत्र गतः अस्ति गतः अपि घं तत्र घं धातोः तप्रत्ययस्य योजनेन गतः इति अस्ति तथैव मार्गभ्रष्टः अपि तथैव तत्र तप्रत्ययः अतः मार्गभ्रष्टः गतः मार्गभ्रष्टः अपि विशेषणमस्ति गतः अपि विशेषणमस्ति व्याधः इति पदस्य अस्तु
अत्यन्तम् अन्विष्यन्नपि अन्विष्योगः अपि सः मार्गं न ज्ञातवान् अत्यन्तम् इत्युक्ते बहुधा प्रयत्नं कृत्वा अपि मार्गं सम्यक् मार्गं सः न ज्ञातवान्
समीचीनम्
इत्युक्ते व्याधः न ज्ञातवान्
नाम ज्ञानं न प्राप्तवान् मार्गस्य ज्ञानं कः मार्गः इति न
प्राप्तवान् इतस्ततः अटनेन एव सायङ्कालः जातः बहुधा इतस्ततः इत्युक्ते तत्र इतस्ततः अटनेन बहुकालं व्याधः अटनेन मार्गस्य अवज्ञानं न प्राप्तवान् तत्र सायङ्कालः अभवत् अपि मार्गं न प्राप्तवान् व्याधः
तत्र किमस्ति तत्र इतस्ततः अटनेन एव सायङ्कालः जातः तत्र नाम तत्र वयं वदामः गच्छता कालेन भवती सर्वं जानाति नाम कालं गच्छति जानीमः तथैव तत्र इतस्ततः अटति अटनेन एव तत्र तस्मिन् समये एव किम् अभवत् तत्र सायङ्कालः जातः सायङ्कालः अभवत्
तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्
न अवरुद्धवान्
अवरुद्धवान् क्षम्यतां महोदय कश्चित् तत्र कं योः चित् सन्धि अस्ति तत्रैव समीपे विद्यमानं कश्चित् तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्रः व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान् तत्समये एकः व्याघ्रः
तस्मिन् समये न तदा अस्तु तस्मिन् समये तदा
तदा अकस्मात् कुतश्चित् कुत्रचित्
कुत्रचित् इति न कुत्रचित् इति न कुतश्चित् इत्युक्ते भिन्नं कुत्रचित् इति भिन्नं
क्षम्यतां
कुतश्चित् इत्युक्ते
कुतश्चित् संवे लैक्
न न न तत्र कूतः इत्युक्ते अर्थः कः
फ्रम् संवेर् न महोदय
हा उत्तमं हा कुत्र इति भिन्नं कुतः इति भिन्नं खलु कुतश्चित् कुत्रचित् इत्युक्ते कुत्र इति न जानीमः किन्तु कुत्रापि अस्ति
कुत्र
कुतश्चित् इत्युक्ते तत्र कुतः सः आगतवान् इति न जानीमः किन्तु कुतश्चित् आगतवान् सः खलु
कुतश्चित् आगतः कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान् अवरुद्धवान् इत्युक्ते अवरोगणम् अस्ति वा महोदय
रुद्ध दत्तुः तत्र
रुदद्धि रुदद्धि न महोदय
रुणद्धि
रुणद्धि अस्तु
नाम तत्र अग्रे आसीत् तत्र तस्य तत्र किं बाधकः बन्धनम् इव खलु सः अग्रे न गन्तुं शक्तवान् खलु
अग्रे अग्रे गन्तुं किं वदामि अग्रे गन्तुं
नाम तत्र निबध्नाति इति
निबध्नाति
इति तादृशं खलु तत्र सः बन्धनं हा बन्धनम् इति हा तादृशं नाम तत्र सः अग्रे गन्तुं न शक्तवान् मार्गे मार्गस्य मार्गे सः बन्धनं हा
प्रतिबन्धकं
प्रतिबन्धकमिव आसीत् हा
भीतः व्याधः तत्रैव समीपे विद्यमान
तत्र अवरुद्धवान् इति तव तु खलु अवरुद्धवान् अवरुद्धवान् इति तव तु खलु
तत्रैव समीपे विद्यमानं कञ्चित् वृक्षम् अवरूढवान् तम्
आरूढवान्
आरूढवान् तत्रैव समीपे विद्यमानम् इत्युक्ते तत्र वृक्षः वृक्षः अस्ति तत्र सः व्याघ्रः दृष्ट्वा सः वृक्षम् आरूढवान् वृक्षस्य शाखायां कश्चन भल्लूकः उपविष्टः आसीत् वृक्षस्य शाखायां
न न भीतः व्याधः तस्य वाक्यस्य विवरणं
भीतः व्याधः तत्रैव समीपे विद्यमानं व्याध भीतः व्याधः विशेषणविशेषम् अस्ति तत्र व्याधः भीतः व्याधः सः भीतम् अनुभूतवान् व्याधः अतः समीपे कश्चित् कञ्चित् वृक्षम् आसीत् तत् वृक्षम् आरूढ उपविष्टवान्
अर्थः कः वृक्षे उपविष्टवान् वा वृक्षम् उपविष्टवान् किम् उक्तवान्
वृक्षम् आरूढवान्
हा आरूढवान् नाम
हि क्लैम् न महोदय
तर्हि तत्र रुह् धातुः आरोहणम्
आरोहणम् अस्ति वा महोदय
खलु
आरोहणं कृतवान्
रोहणम् आरोहणं तत्र उपसर्गः अस्ति खलु नाम तत्र आरूढवान् केवलं रूढवान् अस्ति किन्तु
तव तु प्रति अस्ति
हा किन्तु धातु अस्ति
रुद्
रुह् धातु
रुह्
रुह् धातु रोहणम् आरोहणम् अवरोहणम् इति भवति खलु तत्र आरूढवान् आरोहणम् अवरोहणं तत्र आरोहति इति क्रियापदस्य तवत् आरूढवान् उपरि वृक्षे उपरि गतवान् यथा तत्र अश्वम् आरूढवान् इति भवति खलु, अथवा रथम् आरूढवान्,
रथम् आरूढवान्,
हा तथैव आरूढवान्,
रथम् आरूढवान्,
हा तथैव.
वृक्ष पठामि वा महोदय?
हा अस्तु.
वृक्ष
अथवा अन्य कोऽपि वदेत्? हा धन्यवाद भगिनी, समीचीनं. हा अस्तु अस्तु, धन्यवादः भगिनी. हा अस्तु, इदानीं तत्र हर्षदा भगिनी अग्रे पठति वा?
आं महोदय. वृक्षम् आरूढवान्, वृक्षस्य शाखायां कश्चन भल्लूकः उपविष्टः आसीत्. तत्र वृक्षे एका शाखा एकां शाखायां एकः कोऽपि भल्लूकः एकायां शाखायां एकस्यां शाखायां
क्षम्यताम्
एकस्यां शाखायां एकं कोऽपि एकः कोऽपि भल्लूकः उपविष्टः आसीत्. मीन्स् न तत्र आल्रेडि भल्लूकः उपविष्टवान् उपविष्टः आसीत्. त प्रत्यये तु त प्रत्यये उप उपसर्गेण सह विष् धातु
उपविष्ट.
तं दृष्ट्वा व्याधः कम्पमानः किं कर्तव्यतामूढः सन् तत्रैव शाखायाम् उपविष्टवान्. अत्र शत्रन्त अस्ति, शानच अस्ति, कम्पमानः कम्पते धातोः, कम्पमानः व्याधः. तं भल्लुकं दृष्ट्वा व्याधः कम्पमानः अभवत्. व्याधः कम्पते कम्पमानः अभवत्. सः किं कर्तव्यतामूढः अपि अभवत्. इत्युक्ते सः चिन्तितवान् इदानीम् अहं किं करोमि, अधः तु व्याघ्रः अस्ति, अत्र तु भल्लूकः अस्ति, अहं किं करोमि.
हा अतः तत्र किं कर्तव्यम् अथवा किं करणीयम् इति विषये सः मूढः अभवत्
अभवत्.
किं कर्तव्यता मूढः कर्तव्यता मूढः
मूढः
मूढः किं कर्तव्यता मूढः
मूढः सः किं कर्तव्यता मूढः कम्पमानः व्याधः शाखायां तत्र एव उपविष्टवान्. सः चिन्तयन् आसीत् किं करोमि इति.
तत्र उपविष्टः सः शक्नोमि,
हा अधः अपि गन्तुं न शक्नोमि,
पुरतः अपि आपत् अस्ति, पृष्ठतः अपि आपत् अस्ति.
आम् आम् तदेव. तदा भल्लूकः व्याधं सान्त्वयन् तथा उक्तवान्, भोः मित्र भीतो मा भव, अहं भवतः रक्षणं करोमि. तत्समये भल्लूकः व्याधम् उक्तवान्, सः तस्य सान्त्वनं कृतवान्. मित्र भवान् भीतः मा भवतु, अहं भवतः रक्षणं करोमि, अहं त्वं रक्षामि इति. अहं भवतः रक्षां करोमि, भवतः रक्षां करोमि. अहं त्वां रक्षां करोमि इति सः उक्तवान्. किं वदामि, इत्युक्ते भवान् अत्र उपविष्टुं शक्नोति, अहं भवन्तं किमपि न करोमि, अहं भवतं न खादामि इति सः तम् आश्वासनं दत्तवान् इति. भल्लूकः यत्र उपविष्टवान् आसीत् तत् शाखायाम् एव व्याधः उपविष्टवान्. यस्यां शाखायां भल्लुकः उपविष्टवान् आसीत् भल्लुकः उपविष्टः तस्यां शाखायाम् एव व्याधः अपि उपविष्टवान् यतः भल्लुकः व्याधम् उक्तवान् अहं भवन्तं रक्षणं करोमि इति
भवतः रक्षणं करोमि
भवतः आमां षष्ठी विभक्ति आवश्यकी महोदय मासद्वयानन्तरं किमपि न स्मरामि तदा भल्लुकः इदानीं भवान् निश्चिन्ततया निद्रां करोतु अहं रक्षणं करोमि तत्समये भल्लुकः पुनश्च उक्तवान् भवान् इदानीं किमपि चिन्ता मा करोतु निद्रां करोतु अहं निश्चयेन भवन्तं रक्षामि
हा तत्र निश्चिन्ततया इति पदपरिचयं कृत्वा तत्र किमस्ति
निश्चिन्ततया चिन्ततया निस् उपसर्गेण सह चिन्ततया इति किं वदामि चिन्तयामि चिन्ततया भाववाचकशब्दः अस्ति
समीचीनं हा तर्हि तत्र विभक्तिका इति प्रथमतया
तृतीया अस्ति
तृतीया समीचीनं तर्हि प्रथमरूपं किम् अस्ति
चिन्तता
हा चिन्तता
चिन्ततया चिन्तता प्रथमा चिन्ततया
नाम चिन्तनम् इति तस्य चिन्तता इति तत्र
चिन्तता इति भाववाचकः भवति तस्य तृतीया विभक्ति
भाववाचक तत्र भावस्य तत्र यदि क्रिया भवति तत्र सः सन्तोषेण घायति सन्तोषेण इति तत्र भावः कथम् आसीत् इति तत्र तृतीया भवति खलु तथैव तत्र निद्रां करोतु निद्राति
निश्चिन्ततया भाववाचक विशेषण क्रियापदस्य अस्ति निद्रां करोतु
समीचीनं
तस्य विशेषणम् अस्ति निश्चिन्ततया चिन्तां मा करोतु निद्रां करोति
निद्रा समये चिन्ता मास्तु अतः निद्रां सम्यक् सुखनिद्रा भवतु इति अग्रे
यामे व्यतीते अहं निद्रां करोमि भवान् रक्षणं करोतु इत्युक्तवान् व्यामे व्यतीते सतिसप्तमी
हा यदा व्यामः व्यतीतः भवति व्यामः इति कालस्य तत्र समयस्य एकः भागः तर्हि व्यामः यदा भवति व्यामस्य अनन्तरम् अहं
हा यदा किञ्चित् कालानन्तरं भवान् जागृतः भवति तदा अहं निद्रां करोमि भवान् मम रक्षणं करोतु इति
सत्यं
ततः व्याधः निद्रां कुर्वन् वर्तत कुर्वन् अवर्तत अगेन् दिस् इस् शत्रन्त तत्समये व्याधः निद्रां कृतवान्
हा कुर्वन् अवर्तत वर्तते
कुर्वन्
वर्तते अवर्तत
अवर्तत भूतकाले क्रिया निद्रा भूतकाले कण्टिन्यूस् टेन्स् आसीत् कुर्वन्
अवर्तत न एतत् कण्टिन्यूस् नास्ति नाम तत्र आसीत् कुर्वन् आसीत् समानार्थकं कुर्वन् आसीत् कुर्वन् न वर्तत तावत् कुर्वन् आसीत् कुर्वन् अवर्तत वर्तते नाम अस्ति
अस्ति
वर्तते तथैव अवर्तत नाम आसीत्
आसीत्
ततः ततः नाम तदनन्तरं तस्मिन् समये न किन्तु तदनन्तरं केवलं तस्मिन् समये नाम तस्मिन् क्षणे निद्रा इति नास्ति तथा अनन्तरं तदनन्तरं सः निद्रां कुर्वन् आसीत् एकघण्टा तत्र एकयामः यावत् सः निद्रां कुर्वन् आसीत् खलु अतः तत्र ततः इति अस्तु समीचीनं भगिनि अस्तु अस्तु इदानीम् अग्रे अन्य कोऽपि तत्र नरेश् महोदय अग्रे पठति वा
महोदय चन्द्रकिरणाः सर्वत्र प्रसृता आसन् तदनन्तरं चन्द्रकिरणाः तत्र आसन् रात्रे चन्द्रस्य किरणाः
रात्रे इति नास्ति खलु महोदय रात्रे इति विभक्ति प्रथमविभक्तिरूपं किम् अस्ति
रात्रि
हा तर्हि
सप्तमी रात्र्याम्
अथवा रात्रौ इति खलु
रात्रौ आम् रात्रौ तत्र चन्द्रस्य किरणाः सर्वत्र आगतः वृक्षस्य अधः व्याघ्रः व्याधस्य अवतरणं सम्भावयन् आसीत् अधः तत्र व्याघ्रः आसीत् सः प्रतीक्षां कुर्वन् आसीत् व्याधः अधः आगच्छति चेत्
आगच्छति इति आगच्छति वा इति तत्र सम्भावयन् नाम सम्भावनं करोति किम् इति नाम प्रायशः एषः व्याधः अधः आगच्छति इति प्रायशः आगच्छति इति चिन्तयन् सः व्याघ्रः अधोभागे एव वृक्षस्य अधोभागे एव आसीत् हा
सः भल्लूकम् अवदत् व्याधः भल्लूकम् अवदत् भोः मित्र आवां मृगौ वयं द्वौ मृग स्तः अतः वयं आवां मित्रः स्तः अयं व्याधस्तु अस्माकं वैरी व्याधः तु पुरुषः अस्ति सः मृगः नास्ति सः मृगस्य वैरी अस्ति अतः सः मम वैरी तव वैरी अपि अस्ति भवान् इदानीं तस्य रक्षणं करोति चेदपि श्वः सः भवन्तं मारयेत् यद्यपि अद्य भवान् व्याधस्य रक्षणं करोति तदापि तथापि श्वः सः भवन्तं मारयिष्यति अतः तम् अधः पातयतु अतः सः भवतः वैरी अपि अस्ति मम वैरी अस्ति अतः तम् अधः पातयतु
अधः पातयतु तत्र पातयतु तत्र प्रेरणार्थे खलु पतति
लोट्लकार
लोट्लकारः समीचीनं
भल्लूकः
मारयेत् इति मारयेत् इति
मारयेत् विधिलिङ्ग अस्ति
विधिलिङ्ग मारयेत् अपि तत्र वैरि अस्तु वैरि तत्र प्रायश तत्र वैरि इति दृष्ट्वा तत्र कीदृशपदम् इति वदति वा तत्र वैरि इति प्रातिपदिकं
प्रातिपदिकं वैरिन्
हा किमर्थं सत्यं
तत् हलन्तधातु अस्ति
तत्र अजन्तधा अजन्तप्रातिपदिकं नास्ति खलु
नास्ति
हलन्तप्रातिपदिकं यतोहि तत्र वैरि इति दीर्घ इकारः अस्ति खलु गुणिन्निव गुणी अस्तु समीचीनं महोदय अस्तु अग्रे किञ्चित् तत्र प्रायश वाक्यत्रयं स्वीकृत्य वदतु अग्रे
आम् भल्लूकः उक्तवान् मित्र यदि शरणम् आगतं मुञ्चामि तर्हि इह लोके अपख्यातिः भवेत् तदा भल्लूकः उक्तवान् अहं न पातयामि यदि अहं सः व्याधः मम शरणम् आगतः अस्ति यदि अहं तं पातयामि तत् तु बहु तस् इह लोके अपख्यातिः भवेत् तत्कारणेन अपख्याति भवति किमस्ति तत् सम्यक् कार्यं नास्ति अतः अहं तत् न करोमि
किन्तु किञ्चित् तत्र समीचीनं इह लोके इत्युक्ते
इह लोके अयम् अत्र किमस्ति लोके तु सप्तमी अस्ति
इह लोके इत्युक्ते
इत्युक्ते किम्
अस्मिन् लोके
अस्मिन् लोके
अस्मिन्
भूलोके भूलोके
भूलोके
भूलोके अपख्यातिः भवेत् तत्र मुञ्चामि इति साधारणतया अर्थः किं कः भवति
मुञ्चामि यदि सः मम शरणम् आगतः अस्ति अहं तं भवतां ददामि तं मुञ्चनम् अस्ति
नाम तत्र मुञ्चति तत्र मुञ्चामि मुच् धातुः अर्थः अस्ति तत्र रिलीस् इति साधारणतया मोक्षं मोक्ष मोक्षं मोक्षः इति अर्थे भवति खलु
अस्तु
किन्तु अत्र किमस्ति यदि तत्र मुञ्चामि इत्युक्ते तत्र मम पार्श्वे अस्ति किन्तु अहं भवतः कृते दधामि
भवतः
कृते तत्र फ्री इति न लिबरेट् इति नास्ति तत्र रिलीस् रिलीस् इति अर्थे नाम तत्र मम अधीनम् अस्ति किन्तु अहं
भवतां ददामि
भवते भवतां ददामि न भवते
चतुर्थी
चतुर्थी हा भवते ददामि इति हा अथ मुञ्चामि इति तत्र यः शरणम् आगतम् अस्ति यदि तं शरणम् आगतः अस्ति यदि तम् आगतं मुञ्चामि भवते ददामि तर्हि अस्मिन् लोके अपख्यातिः ख्यातिः न भवति कीर्तिः न प्राप्नो कीर्तिं न प्राप्नोमि अपख्यातिः प्राप्नोमि अपख्यातिं प्राप्नोमि अपख्यातिः भवेत् हा अपि
परलोके अपि दुर्गतिः भवेत् अस्मिन् लोके अपख्यातिः अस्ति परलोके अपि दुर्गति भवेत् मृत्युपर्यन्तं
मृत्युपर्यन्तं मृत्यु अनन्तरं नाम परलोके इत्युक्ते भूलोकं विहाय तत्र चतुर्दशलोकाः सन्ति खलु तर्हि उपरि उपरि ये लोकाः अथवा अधोभागे तत्र परलोके सरन्ति उपरि ये लोकाः सन्ति तत्र परलोके दुर्गतिः भवेत् स्वर्गः इति इत्यादयः
तत्र
दुर्गतिः तत्र अपि दुर्गतिः भवति मम दुर्गतिः भवति इति सः वदति अस्तु समीचीनं महोदय अस्तु अग्रे तत्र उषास्वामिनाथन् भगिनी अग्रे पठति वा
आं महोदय अतः एतं न मुञ्चामि इति बल्लुकः उक्तवान् व्याधं न मुञ्चामि इति भवन्तं समीपे न
भवतः समीपे
न पातयामि इति कश्चन कालः अतीतः सो व्याधः सुप्तः आसीत् कश्चन कालः अतीतः व्याधः जागरितः कालात् अनन्तरं व्याधः जागरितः
निद्रां कृतवान् इदानीं
इदानीं जागरितः आम्
अस्ति
आं महोदय इदानीं भल्लूकः पर्णच्छायायां निद्राम् अकरोत् यामे व्यतीते अहं निद्रां करोमि इति पूर्वं भल्लूकम् उक्तवान् भल्लूकः उक्तवान् पूर्वं तदा एव व्याधः जागरितः इदानीं भल्लूकः पर्णच्छायायां निद्राम् अकरोत् निद्राम् आरम्भं
तत्र पर्यायः इति भवति खलु पर्यायः
पर्णच्छाया पर्यायः इति कस्य कृते भवान् उक्तवान् महोदय पर्याय
इत्युक्ते टर्न् इति
ओ टर्न् टर्न् ओ ओ आम्
इदानीं तत्र व्याधस्य
भल्लूकस्य भल्लूकस्य
भल्लूकस्य
पर्यायः ओ अस्तु
पर्यायः अस्ति निद्रां कर्तुं
निद्रां कर्तुं भल्लूकस्य पर्यायः आसीत् इदानीम्
अतः सः
पर्णच्छायायां निद्रां
पर्णच्छायां पर्णं नाम पर्ण नाम
पर्णानि
लीव्स्णानि तेषां छायायां
तेषां छायायां निद्राम् अकरोत्
अकरोत् समीचीनम् अग्रे
तदा व्याघ्रः व्याधम् उक्तवान् रे मूढ मत्तः भीतः भवान् भल्लूकं शरणं गतवान् किम् सः भवतः शत्रुः मम निर्गमनम् एव सः प्रतीक्षते तदा तदा व्याघ्रः व्याधम् उक्तवान् हे मूढ भवान् फ्रम् मी यु हार् स्केड् मत्तः भीतः भवान्
मत्तः इति मम इति अर्थः नास्ति न न न तद् नास्ति भीतः इति समीचीनं भीतः भवान् मत्तः इति
फ्रम् इयर्
तदपि प्रायशः मत्तः भीतः इति
मत्तः फ्रम्
पञ्चमी
पञ्चमी एव
पञ्चमी कृते तहसील् प्रत्यये
मत्तः
मत्तः
मत् इत्यस्य मत् इत्यस्य
समीचीनं भगिनि तत्र अहं चिन्तितवान् प्रायशः तत्र उन्मत्तः इति अस्ति खलु तथा मत्तः इति अस्ति इति किन्तु समीचीनं तत्र भवती यत् उक्तवती तत् समीचीनमेव मत्तः नाम
मम कृते भीति अस्ति
कृत्वा पञ्चमी
बल्लूकं कृते शरणं गतवान् परन्तु बल्लूकः भवतः शत्रुः इति व्याघ्रः उक्तवान् व्याधं कृते मम निर्गमनम् एव सः प्रतीक्षते मम निर्गमनमेव बल्लूकः प्रतीक्षते अनन्तरं बल्लूकः तव शत्रुः इत्यनेन भवन्तं मारयति इति तदनन्तरं
यदि अहं निर्गच्छामि तदा सः
भवन्तं मारयति तदनन्तरं भवन्तं मारयति अतः जागरणात् पूर्वमेव भवान् तम् अधः पातयतु इति व्याघ्रः इदानीं व्याधः कृते उक्तवान् व्याधम् उद्दिश्य उक्तवान् जागरणात् पूर्वमेव बल्लूकस्य जागरणात् पूर्वमेव बल्लूकं पातयतु इति
उत्तमं बल्लूकस्य जागरणात् पूर्वमेव भवान् तं बल्लूकं अधः
पातयतु
इति समीचीनं
व्याघ्रस्य वचनं श्रुत्वा कृतज्ञः व्याधः निद्रामग्नं बल्लूकम् अधः पातितवान् व्याघ्रस्य वचनं श्रुत्वा व्याधः कृतज्ञः मीनिङ्ग् हि इस् नाट् कृतज्ञः कृतहनः कृतज्ञः हि इस् नाट् बीयिङ्ग् now he forgot that he is
that the
balluka nasty. is good gratitude nasty ungrateful okay vyagrasya vachanam shrutva kritagnah vyadah nidra magnam ballukam adah patitavan patitavan vyadah ballukam patitavan
nama kritagnah iti prayasha tatra yat krutam karyam asti tasya
हननं
तस्य विषये तत्र किं तत्र कृतज्ञः इति पदपरिचयं तत्र
इति हकारः कोहन्ते निन्निन्नेषु इत्यनेन दट् रूल् 8354 ऐ थिङ्क् महोदय
अस्तु भगिनि भवती यद् वदति अहम् अङ्गीकरोमि अस्तु न जानामि तत्
होहन्त हकारा बिकम्स् दकारा दट्स् वे ऐ थाट्
कृत पुनः तत् न जानामि
सत्यं भगिनि ऐ एम् आल्सो
कृतं हन्ति इति एव
7354 नाट् 8354
किमस्ति भगिनि हन्ति
कृतं हन्ति इति कृतं येन केनचित् जनेन उपकृतं हन्ति नाशयति
हो हन्तेर्निन्निन्नेषु महोदय सो
समीचीनं भगिनि अस्तु
कृतज्ञः
पठनीयमस्ति एतावद् न जानामि अस्तु वदतु भगिनि
व्याघ्रस्य वचनं श्रुत्वा कृतज्ञः व्याधः निद्रामग्नं बल्लूकम् अधः पातितवान् व्याधः बल्लूकम् अधः पातितवान् बल्लूकः तु
पतन् एव यद्यपि पतन् भल्लूकः तु यद्यपि पतन् जागरितः भल्लूकः इदानीं जागरितः काञ्च शाखाम् अवलम्ब्य पुनः वृक्षम् आरुह्य उपविष्टवान् यद्यपि भल्लूकः अधः यद्यपि भल्लूकं भल्लूकः तु पतन् एव यद्यपि पतन् जागरितः जागरितः इदानीम् आसीत् जागरितः आसीत् काञ्चित् शाखाम् अवलम्ब्य
नाम तत्र पतन् एव नाम सः पतति तस्मिन्नेव समये सः जागरितः
जागरितः आम्
जागरितः अतः पतन्नेव सः जागरितः अभवत्
जागरितः अभवत् भल्लूकः काञ्चित् शाखाम् अवलम्ब्य पुनः वृक्षम् आरुह्य उपविष्टवान् हौ डु से ग्रौण्ड् महोदय हि डिड् नाट् फाल् टु द ग्रौण्ड् बट् वृक्षम् आरुह्य उपविष्टवान्
तत्र भूमिं न प्राप्तवान्
भूमिम्
अथवा भूमौ न पतितवान्
भूमौ न पतितवान् भल्लूकः शाखाम् अवलम्ब्य एकां शाखां
मध्ये एव सः
कश्चन शाखाम् अवलम्ब्य
कश्चन इति नाम
शाखाम्
इति विभक्ति अस्ति काम् इति
काञ्चन ओके काञ्चित् शाखायां काञ्चित् शाखाम् अवलम्ब्य वृक्षम् आरुह्य उपविष्टवान्
पुनः वृक्षम्
आरुह्य
पुनः इति न इदानीं सः वृक्षम् आरुह्य
उपविष्टवान्
उपविष्टवान्
अस्तु उपविष्टवान् भल्लूकं दृष्ट्वा व्याधः कम्पते स्म व्याधः इदानीं भल्लूकं पातितवान् परन्तु भल्लूकं शाखाम् अवलम्ब्य
उपविष्टवान् उपरि एव अस्ति इदानीं
उपरि एव अस्ति तत् दृष्ट्वा व्याधः भयेन कम्पते स्म
इति समीचीनं भयेन कम्पते
भयेन
कम्पते स्म इति समीचीनं भगिनि धन्यवादः
धन्यवादः
अस्तु अग्रे सरामः तर्हि शोभा भगिनी अग्रे
आं महोदय तदा भल्लूकः उक्तवान् व्याध भयं मास्तु यद्यपि भवान् कृतज्ञः तथापि अहं न मारयामि इति इदानीं भल्लूकं दृष्ट्वा किं व्याधः भयेन कम्पते स्म इदानीं भल्लूकः जागरितः अतः व्याधः भीतः अभवत् सः माम् इदानीं मारयति इति चिन्तयित्वा तदा भल्लूकः उक्तवान् ताम् आश्वासनं दत्तवान् भयस्य आवश्यकता नास्ति अहं न मारयामि इति यद्यपि भवान् कृतज्ञः यद्यपि क्षम्यतां यद्यपि भवान् मम उपकारं न स्मृत्वा अपकारमेव कृतवान् आसीत् मम कृते तथापि अहं त्वं न मारयामि इति आश्वासितवान् तद् दृष्ट्वा व्याघ्रः उक्तवान् भवान् तस्य रक्षणं कृतवान् चेदपि तत्र चेत् योगः अपि सन्धिः चेदपि सः तकारस्य दकारादेशः चेदपि सः भवन्तम् एव मारयितुम् उद्युक्तः इदानीं व्याघ्रः वदति भल्लूकम् उद्दिश्य वदति भवान् तु तस्य रक्षणं करोमि इति निर्धारितवान् अपि च तस्य रक्षणस्य पालनमपि कृतवान् मह्यं न दत्तवान् किन्तु तथापि सः तु एषः व्याघ्रः तु त्वमेव मारयितुम् उद्युक्तः व्याधः त्वमेव मारयितुम् उत्सुकः अभवत् स्वस्य रक्षणाय त्वं मारयितुं कृतज्ञतां दर्शितवान् इति वदति तं कृतज्ञम् अधः पातयतु इति अतः किमर्थं तस्य रक्षणं कर्तुम् इच्छति भवान् अधः पातयतु कोऽपि दोषः नास्ति तत्र
इति तत्र इदानीं तत्र व्याघ्रस्य तत्र पालिसि डिवैड् अण्ड् कान्कर्
आम् तत्र भल्लूकं यदा उक्तवान् तदा तु कार्यं न अभवत्
अतः इदानीम्
अतः व्याधम् उक्तवान् सः तु सिद्धः आसन् किन्तु भल्लूकः मध्ये एव जागरितः अभवत् अतः न प्राप्तवान् तम् इति इदानीं तत्र पुनः भल्लूकमेव किं तत्र प्रार्थनां करोति
तत्र भल्लूकम् उद्दिश्य
पुनः प्रयत्नं करोति इति तदा भल्लूकः उक्तवान् सखे अपकारिभ्यः विवेकिनः न अपकारिभ्यः विवेकिनः न कुप्येयुः इति तत्र सखे इति सम्बोधनरूपं सखा इत्यस्य प्रायशः महोदय सखा अथवा सखे इति कुत्र भवति इति
प्रायशः सखा अथवा सखी इति सखा एव भवेत्
सखी इति पुंलिङ्गे अपि अस्ति अतः अस्तु अपकारिभ्यः
समीचीनं भगिनी तत्र सखा एव भवेत् यतोहि तत्र स्त्रीलिङ्गे लता इति तस्य सम्बोधनं लथे इति अस्ति खलु अतः तथैव तत्र सखा इति न जानामि अस्तु
आं महोदय अपकारिभ्यः
महोदय आकारान्तस्य सम्बोधनं सदैव एकारान्त एव भवति खलु सखा इत्यस्य सखे भवेत्
सखा एव अस्ति तत्र
सखा एव आवश्यकं
दृष्टवती अपि तत्र सखा सखायौ सखायः सखे इति पुंलिङ्गे पुंलिङ्गे
भवति धन्यवादः
अपकारिभ्यः तत्र अपकारिभ्यः इति चतुर्थी इति मन्ये अपकारिभ्यः
तत्र
तेषां कृते
तत्र
तेभ्यः
कुप्यति इति तत्र
चतुर्थीविभक्त्याम् एव भवति आं महोदय सत्यं
तत्र भीतिः भीतः इति तत्र पञ्चमी
पञ्चमी
अत्र तु कुप्यति इति
क्रुध्यति कुप् धातुः
क्रुध्यति
क्रुध्यति असूया इति कानिचन पदानि सन्ति तत्र तेषां योगे चतुर्थी एव भवति
एतत् सर्वं तत्र विभक्तिवल्लरी पुस्तके आसीत् खलु
आं महोदय
विभक्तिवल्लरी इति जानन्ति खलु पुस्तकम् अस्ति तत्र विभक्तेः प्रयोगः कदा करणीयः इति अस्तु
हा तर्हि तत्र विवेकिनः इत्युक्ते विवेकिन् इति प्रातिपदिकं विवेकी इति पुंलिङ्गे एकवचने प्रथमविभक्त्यां भवति तस्य विवेकिनः इति बहुवचनप्रयोगः विवेकिनः न अत्र कर्तृपदम् न कुप्येयुः कुप्येयुः इति तत्र विधिलिङ्गकारे सम्भावने न कुप्येयुः न करणीयम् इति तादृशं क्रोधं न करणीयं यतोहि विवेकिनः न करणीयं किं भवति तत्र विवेकिनः करणीयम् अस्ति चेत् विवेकी इत्यस्य योगी किं तत्र तृतीया किं योगिभिः वा विवेकिभिः प्रायशः न करणीयं यतोहि यतोहि विवेकिनः जानन्ति किं कर्तव्यं किं न कर्तव्यम् इति, किन्तु अविवेकिनः तु न जानन्ति, अतः पार्श्वः न कुप्येयुः इति वदति. न वा प्रतिविधानम् आचरेयुः. तत्र विधानम् इत्युक्ते विधिः, क्रिया इति भवति. कार्यं यत् अविवेकिनः कुर्वन्ति तादृशमेव प्रतिविधानम् इत्युक्ते तथा एव न आचरेयुः, आचरणं न करणीयम्.
प्रतिविधानं नाम तत्र यदि सः मा तत्र दण्डयति अहमपि दण्डयामि इति, तत्र सः मारयति अहम् अतः तत्र प्रति इति अहं चिन्तयामि, तत्र रेस्पान्स् इति, तत्र यद् सः कृतवान्
तदेव न करणीयम्,
अहमपि करोमि इति तद् प्रतिविधानं भवति. किन्तु
किन्तु
तद् न आचरेयुः,
न आचरणीयं, तत्रापि विधिलिङ्गकारः. इत्युक्ते तत्र अपकारिभ्यः विवेकिनः न कुप्येयुः, अपि च न वा प्रतिविधानम् आचरेयुः इति उक्तवान्.
सः अपकारं करोति चेत् अहम्
अपकारं न करणीयम्
इति चिन्तनं मास्तु,
अहमपि तदेव करोमि इति चिन्तनं न करणीयं, मास्तु. अपकारिणामपि उपकारः एव कर्तव्यः इति नीतिः, तदेव अस्माकं कथायाः शीर्षिका अस्ति. अपकारिणामपि उपकारः एव कर्तव्यः इति नीतिः वदति. तस्मात् अहं न मुञ्चामि इति पुनः वदति भल्लूकः. अहं तस्याः नीतेः उल्लङ्घनं न करोमि एव इति. ततः व्याघ्रेण बहुधा प्रार्थितः अपि सः तद्वचनम् अवधीर्य आप्रभातं व्याधं रक्षितवान्. ततः व्याघ्रः न निर्गतवान् ततः. पुनः पुनः बहुधा प्रयत्नं कृतवान्, प्रार्थितवान् भल्लूकम् उद्दिश्य, किन्तु भल्लूकः न अङ्गीकृतवान् एव. आप्रभातम् इत्युक्ते प्रभातपर्यन्तं, यावत्पर्यन्तं प्रभातः न जातः तावत्पर्यन्तं तत्र एव स्थित्वा तं व्याघ्रं रक्षितवान्, वचनं पालितवान्. तद्वचनम् अवधीर्य, तत्र लेप् प्रत्ययः अव इति उपसर्गः, धीर्य इति कदा भवति तत्र, धीर्य अवधीर्य धी धातुः कः
धारयति, धारयति
धारयति वा
अवधीर्य
इति मन्ये,
धरति धरति धारयति, तत्र तत् प्रायशः भवति. हा अवधरति तत्र धृधातुः,
धृधातुः अवधरति, ओ अस्तु
अवधरति
धीर्य. वचनं वचनम् अवधरति, अस्तु अस्तु, आं महोदय, वचनमेव अवधरति सः.
इत्युक्ते अवधरति इत्युक्ते यत् उक्तवान् तत् सत्यम् इति सः कारितवान्, नाम तस्य पालनं कृतवान्, यत् उक्तवान् तत् सत्यवचनम् इति प्रदर्शितवान्,
प्रदर्शितवान्. तत्र आप्रभातम् इति आ इति वदतु महोदय,
वदतु भगिनि. आप्रभातम्
आ इति उपसर्गः, तेन सह प्रभातम् इति योजितम्. आप्रभातम् इत्युक्ते तत्र
प्रभातं यावत्
यावत् प्रभातं यावत् इति अर्थः भवति. व्याधं रक्षितवान्. एतस्यां कथायां तत्र स्थूलाक्षरैः मुद्रितानि.
महोदय ध्रुधातु अस्ति चेत् तस्य लेप् धृत्य इति भवति, अतः अहं चिन्तयामि धारयति इत्यस्य नीजन्तस्य ल्यप् भवेत् इति. धरति अस्ति न, धरति क्रियापदमस्ति चेत् तस्य ल्यप् ल्यप् धृत्य इति भवति. अतः अतः अहं चिन्तयामि धारयति इत्यस्य भवेत् इति.
ओ अस्तु भगिनि, तर्हि तत्र अस्तु अस्तु अस्तु, तर्हि तत्र धारयति अवधारयति
निजन्तस्य निजन्तस्य अव अधिकध्रु तस्य निजन्तस्य ल्यप् अस्ति इति मन्ये. शोभा भगिनी मम अपेक्षया बहु बहवः विषयान् जानाति.
बहुना भगिनी किञ्चित् एव
प्रायशः तद् भवेत् भगिनि
तदपि.
अस्तु द्रष्टव्यमस्ति किन्तु सम्यक् इति मन्ये भगिनि. हा अवधीर्य, यतोहि यथा भवती वद तत्र अत्र किमस्ति, अत्र रूपं लेबन्तरूपं किमस्ति अत्र
धृत्य धृत्य प्रधृत्य अधृत्य.
ओ सत्यं सत्यं सत्यं,
धरति धरति क्रियापदस्य धृत्य इति मन्ये.
सत्यं भगिनि,
भवान् पश्यतु महोदय वदतु.
न न न सत्यमेव, हा सत्यमेव, किन्तु तत्र निजन्तस्य
तत्र इत्युक्ते तरति इति अस्ति चेत् अवतीर्य इति एव भवति. तरति अस्ति चेत् अवतीर्या इति भवति.
किन्तु अत्र अत्र
धृत्यस्ति चेत्
धृत्वा धृत्वा इति अस्ति तुमुन्
उपसर्गेण सह धृत्य
धृत्य इति लेबन्तं भवति. अस्तु समीचीनं. हा धृतवान् इति एतत् सम्यक् अस्ति खलु, अतः तत्र हा
इति मन्ये महोदय. शोभा भगिनी भवती अपि पश्यतु, महोदय भवान् अपि पश्यतु, मम मतं
समीचीनं. यतोहि तत्र सत्यं भगिनि, यतोहि तत्र अवधृतवान् नाम तत्र अवधृत् अवधीर्य
अवधृत्य भवेत् खलु अवधृतवान्.
अवधृत्य इत्युक्ते स्वयमेव स्वयमेव तत् स्वयमेव तद् भूतवान्, किन्तु तत्र वचनम् अवधृतवान् खलु, वचनम् अवधृतवान् कारितवान्.
तत्र धी इति धातुः दत्तं महोदय. धी इति तत्र इण्टेलिजेन्स् अर्थे अस्ति खलु, धी इति धातुः दर्शितम्
अत्र.
आम् अपि च
अवधीर्य इति वा
तत्र धिया इति भवति, धीर्य इति न भवति.
हा अवधीर्य इति
धातु अस्ति चेत् तत्र
आगच्छति.
यतोहि भगिनि प्रायशः नीच्यति समीचीनम्, यतोहि सः स्वयं तत्र सत्यं न नाम तत्र वचनं सत्यम् इति सः कृतवान् खलु, कारितवान्. तस्य वचनं सत्यं भवेत् इति वचनं सत्यं कार्य इति रूपेण कारितवान्. सः स्वयं सत्यं न अभवत् खलु, तर्हि तत्र निश्चिति भवेत्. किञ्चित् चिन्तनं कुर्मः. अस्तु तत्र अवधारय इति बहुवारं शृण्मः खलु.
अवधारणा इति अपि अस्ति महोदय.
तत्र ऋग्वेदम् अवधारय इति बहुवारं मन्दिरे शृण्मः. अस्तु प्रायशः तत्र समीपमेव अस्ति. अस्तु अस्तु भगिनि. शोभ भगिनि अन्ते तत्र किम् अस्ति
अन्ते
एतस्याम् इति
एतस्यां कथायां स्थूलाक्षरैः मुद्रितानि व्यञ्जनसन्धियुक्तानि पदानि सन्ति. यथा वयं यथा पठितवन्तः तत्र सर्वत्र यत्र सन्धिः अभवत् पदे तत् दर्शितमासीत्. तत्र ययोः पदयोः योगे एतस्य पदस्य उत्पत्तिः भवति इति तर्हि आवरणे सन्धिविभागः अपि दर्शितः अस्ति इत्येव दत्तमस्ति तत्र तत्र तानि पदानि यानि स्थूलाक्षरैः मुद्रितानि आसन् तेषां सन्धिविभागः कथम् अस्ति इति दर्शितम् अस्ति इति उक्तं तत्र महोदय इत्युक्ते व्यञ्जनसन्धिः इति विषयः इदानीम् अतः एतानि सर्वाणि पदानि व्यञ्जनसन्धियुक्तपदानि इति अपि च तेषां सन्धिः कथं भवति इति अग्रिमः अभ्यासः दर्शयति इति दत्तं
हा सत्यं सत्यं हा किन्तु तत्र प्रायश वयं यदि तत्र इदानीं किमपि कार्यमस्ति इति चिन्तनं चेत् तत्र किं करणीयम् अस्माभिः तत्र व्यञ्जनसन्धिः इति नास्ति किन्तु अस्मिन् पाठे स्वरसन्धिः कुत्र कुत्र अस्ति इति द्रष्टव्यमस्ति खलु अभ्यासः अस्माकम् अभ्यासः तद् न दत्तं किन्तु यतोहि वयं तत्र स्वरसन्धिः सन्धिविषये वयं निपुणाः जाताः खलु अतः तत्र कुत्र कुत्र स्वरसन्धिः स्वरसन्धियुक्तानि पदानि कानि इति यदि चिन्तनं कुर्मः सः अभ्यासः सम्यक् भवेत् इति मन्ये यथा तत्र इत्युक्तवान् तत्र इति योगः उक्तवान् इत्युक्तवान् खलु
आं महोदय इत्युक्तवान् तत्र यण् सन्धिः भवति
हा तादृश कुत्र कुत्र यण् सन्धिः अथवा तत्र स्वरसन्धिः कुत्र 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 अस्ति इति यदि
तस्मिन्नेव
तस्मिन्नेव हा तत्र तु
तत्र दण्डकारण्ये तत्रापि प्रथमपदे अपि अस्ति खलु महोदय दण्डक अरण्ये दण्डकारण्ये इति भवति
हा सत्यं भगिनि हा
तत्र सवर्णदीर्घसन्धिः
हा समीचीनं भगिनि अतः तत्र कुत्र कुत्र
तत्तु सामासिकशब्दः अस्ति खलु
किं
दण्डकारण्यं
समासे सन्धिः भवितुम् अर्हति चेत् भवति
आमां तत्तु नित्यं तत्तु नित्यं न
हा किन्तु स्वरसन्धिः एव अस्ति खलु तत्र
आमाम्
अस्माकं तत्र इदानीम् अभ्यासः कः इत्युक्ते कुत्र कुत्र स्वरसन्धियुक्तानि पदानि सन्ति तर्हि दण्डकारण्ये तत्र तु स्वरसन्धिः अस्ति नाम तत्र व्यञ्जनसन्धिः तत्र सन्धेः तत्र कति विधाः सन्ति प्रकारः के इति न जानीमः खलु अतः स्वरसन्धिविषये बहु किमपि जानीमः अतः यदि अभ्यासः आवश्यकः चेत् स्वरसन्धिविषये अभ्यासः भवेत् इति तावदेव किन्तु तर्हि तत्र पाठः अस्माभिः पठितः इदानीं तत्र अग्रिमे वर्गे तत्र किं स्वरूपमहोदयस्य करपत्रं गच्छामः वा अथवा किं पुनः तत्र गत्वा तत्र स्वरसन्धेः तत्र सम्पूर्णविवरणं पठामः खलु
आं महोदय
अद्य केवलं यतोहि तत्र बहुकालानन्तरं वर्गः भवति इति कृत्वा केवलं तत्र किं तत्र सुलभः भवेत् भवतु इति आशयेन आशया एतत्
भवान् अस्मान् जागरितवान्
न न न न अहमपि जागरितः अभवत् अभवम् अस्तु तर्हि तर्हि तत्र हा सुजाता भगिनी क्षम्यताम् अद्य भवती न पठितवती
चिन्ता मास्तु महोदय
अस्तु किन्तु अग्रिमे सप्ताहे तत्र कुर्मः अपि तत्र स्वरूपमहोदयस्य करपत्रमेव कुत्र आसं ततः अग्रे सरामः तर्हि अस्तु तर्हि तत्र नरेशमहोदय अन्ते शान्तिमन्त्रं वदति वा महोदय
अग्रिमे बुधवासरे कक्षा अस्ति वा
किं भगिनि
अग्रिमे बुधवासरे कक्षा भविष्यति
इति मम चिन्तनं किमर्थं भगिनि
गणेशोत्सव अस्ति गणेश गणेशविसर्जनम् अस्ति अस्माकं मुम्बैप्रदेशे
किन्तु तत् प्रातःकाले न भवति खलु विसर्जनं
प्रातःकाले न भवति परन्तु महोदय नैवेद्य
अस्तु भगिनि तर्हि तत्र अग्रिमसप्ताहे वर्गः मास्तु तदनन्तरं
महोदय सर्वेषां सौकर्यमस्ति चेत् अहं किमपि करोमि अहं न वदामि केवलं शृणोमि
अस्तु 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 तत् तत् कुर्मः तर्हि
अहं केवलं शृणोमि कार्यं कार्यं कुर्वन् कुर्वन्
कुर्वती कुर्वती
कुर्वती भवामि भविष्यामि परन्तु शृणोमि
अस्तु भगिनि अस्तु अस्तु समीचीनम् अस्तु तत् कुर्मः नरेश महोदय तर्हि
आं महोदय
ओके
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः महोदय
धन्यवादः
तर्हि तत्र अग्रिमसप्ताहे वर्गः भवति
अस्तु
धन्यवादः महोदय नमस्कारः
धन्यवादः
धन्यवादः
धन्यवादः महोदय